इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी संयुक्त अरब अमीरात देशस्य अल्पकालावधिकां यात्रां सम्पूर्य यूरोपदेशै सह भारतस्य सामरिक आर्थिक सम्बन्धान् प्रगाढतरं कर्तुं पञ्चराष्ट्राणां भ्रमणस्य द्वितीये चरणे गतरात्रौ नीदरलैण्डदेशं प्राप्तवान्। एम्स्टर्डम इति विमानस्थानके डच देशस्य विदेशमन्त्रिणा टॉम बेरेन्डसन इत्यनेन श्रीमोदिनः स्वागतं कृतम्। इतः पूर्वं सः आबुधाबीनगरे यूएई देशस्य राष्ट्रपतिना मोहम्मद बिन जायद अल नाहियान इत्यनेन सह चर्चां कृतवान् आसीत्। डच देशस्य हेग नगरे भारतीय प्रवासिनः सांस्कृतिक संगीत प्रदर्शनैः प्रधानमन्त्रिणः भव्यतया स्वागतं कृतवन्तः। डच सैनिकाः अपि तम् औपचारिकरूपेण अभिनन्दितवन्तः। भ्रमणावधौ प्रधानमन्त्री मोदी डच देशस्य प्रधानमन्त्रिणा रॉब जेट्टन इत्यनेन सह द्विपाक्षिकं वार्तालापं करिष्यति, राष्ट्रप्रमुखाञ्च मिलिष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमस्ति यत् देशवासिनां कृते ईज ऑफ डूइंग बिजनेस अथ ईज ऑफ लिविंग इत्येतयोः परिष्कारे सर्वकारः प्रतिबद्धः अस्तीति। एकस्मिन् सामाजिक प्रसार माध्यमे श्रीमोदी प्रसार संस्थानां प्रतिवेदनं निराकृतवान् यत् जनानामुपरि कथमपि अधिभारम् आरोप्यते इति। सर्वकारेण पेट्रोल निर्याते त्रिरूप्यकाणां प्रतिलीटर इति विशेष अतिरिक्त उत्पाद शुल्कम् आरोपितमस्ति। वित्तमन्त्रालयेन अद्य प्रकाशिते आधिकारिक राजपत्रे उक्तमस्ति यत् अधिसूचनानुगुणं डीजल निर्याते प्रतिलीटरेति परिमितौ विशेष अतिरिक्त उत्पाद शुल्कं 23 रूप्यकाणाम् अपेक्षया 16.5 रूप्यकाणि कृत्वा न्यूनीकृतमस्ति। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः कार्यभारग्रहणानन्तरम् अद्य सिक्किमराज्यस्य प्रथमवारं भ्रमणं करिष्यति। स्वयात्रायाम् उपराष्ट्रपतिः गंगटोकनगरे सिक्किमराज्यस्य राज्यत्वदिवससमारोहे भागं ग्रहीष्यति। राज्यपालः ओमप्रकाशमाथुरः, सिक्किमराज्यस्य मुख्यमन्त्री प्रेंग सिम तवांगः, केन्द्रीय पूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्य सिन्धिया इत्यादयोऽपि उत्सवेऽस्मिन् भागं ग्रहीष्यन्ति। केन्द्रीय माध्यमिक शिक्षा बोर्ड CBSE इत्ययम् अवदत् यत् ये छात्राः स्वस्य परिणामैः असन्तुष्टाः सन्ति ते संरचित समीक्षा व्यवस्थां प्राप्तुं शक्नुवन्ति, या हि द्विचरणीय समीक्षा प्रक्रिया अस्ति। प्रथमचरणे छात्राः स्वमूल्यांकितानां उत्तरपुस्तिकानां स्कैन इति प्रतिबिम्बितप्रतयः याचयितुं शक्नुवन्ति, एताः अन्तर्जालीय माध्यमेन उपलभ्यन्ते। द्वितीय चरणे छात्राः विसंगतानां प्रश्नोत्तराणां सत्यापनाय आवेदनमपि कर्तुं शक्नुवन्ति, उतो वा अंकन योजनायाः आधारेण विशिष्टानां उत्तराणां पुनर्मूल्यांकनार्थं याचना कर्तुं शक्नुवन्ति। इज़राइल लेबनान देशौ वाशिंगटन नगरे संजातायाः वार्तायाः अनन्तरं युद्धविरामस्य पुनः 45 दिवसपर्यन्तस्य विस्ताराय सहमतौ अभवताम् इति अमेरिकादेशस्य विदेशविभागः अवदत्। विदेशविभागस्य प्रवक्ता टॉमी पिगोट अवदत् यत् वारद्वयकृत वार्तालापेन फलदायकं युद्धविरामम् आगच्छदति। इतः अनन्तरं जूनमासस्य 2-3 दिनांकयोः आधिक्येन वार्तालापो भविष्यतीति निश्चितमस्ति। आईपीएल क्रिकेट क्रीडायां गतरात्रौ लखनऊ नगरस्य एकाना क्रीडांगणे लखनऊ सुपर जायंट्स इति दलेन चेन्नई सुपर किंग्स इति दलं 7 स्तोभैः पराजितम्। सीएसके इत्यनेन प्रदत्तस्य 88.1% धावनांकस्य लक्ष्यम् आतिथीयेन एलएसजी इति दलेन 17 क्षेपणचक्रेष् सम्प्राप्तम्, यत्र केवलं 38 कन्दुकेषु मिचेल मार्शल इत्यस्य 90 धावनांकानां भूमिका निर्णायिका अभवत्। मार्शः उत्तम क्रीडकत्वेन पुरस्कृतः इति वार्ताः।